सर्वेषां स्वागतं ध्येयं मन्त्रेण आरम्भं कुर्मः
आम् भगिनि पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य तदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च त्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
अस्तु धन्यवादः भगिनि इदानीम् अभ्यासदर्शिनीं प्रति गच्छामः ततः पूर्वं स्वस्य वाक्यानि सन्ति चेत् वदन्तु का वक्तुम् इच्छति
भगिनि अहमस्मि तु
उक्तवती भगिनि भवत्याः नाम अहम् उक्तवती एव
भगिनि अहं न श्रुणोति भगिनि योर् वाय्स् इस् वेरि वेरि लो
नमस्ते भगिनि अहं रम्या
रम्या भगिनि स्वागतं
फैन् भगिनि हौ आर् यु भगिनि
उत्तमं भगिनि
आफ्टर् शार्ट् ब्रेक् ऐ एम् अगेन् कण्टिन्यूङ्ग्
उत्तमं भगिनि स्वागतम् So my voice is very low today?
Yes, Pagini.
Okay, I'll try to change it.
I find it okay, Pagini. I don't know if, how the others feel, but you're quite audible at my end.
How do the others feel?
It is a little lower than usual, Pagini.
एवं वा सो ऐ एम् गोयिङ्ग् टु पास् द रेकार्डिङ्ग् सो ऐ डोण्ट् वाण्ट् टु हेव् दट् गेप् एकनिमिषम् ओ ऐ के नाट् पास्
बट् कम्पेरिटिव्लि टुडे इट्स् लो या भगिनि बिकास् ऐ थिङ्क् यु आर् स्पीकिङ्ग् आन् अ माइक्रोफोन्
Yeah,
that's why.
Okay then, so I'll remove the microphone and...
Yes, now it is good. Yesterday I saw you, Bhagini, with that.
Okay, so is it better now?
We cannot hear you.
Hello, can you hear me now?
Yes. Bhagini.
Now
Samyak Shruyate.
Samyak. Astu, astu tarhi.
It's fine.
Bhagini came back. Our Bhagini came back.
Okay. So, idanim arambham kurmah. Parameshwar Mahodaya api asti. Aham naam likami. Anya kopi nutana chatrah agatavantah va?
Aham asmi Bhagini Usha.
Usha Bhagini, swagatam. उमा कृष्णन् भगिनि स्वागतं
नमस्कारः भगिनि
नमस्कारः भगिनि कृष्णं स्वागतम् अस्तु चाट् मध्ये किम् अस्ति इति नमस्कारः भगिनि उमा कृष्णन् भगिनि अस्तु अस्तु सो अत्र स्वस्य वाक्यानि सन्ति वा
अहं वदामि वा भगिनि
वदतु वदतु भगिनि
भगिनि अस्मत् शब्दं
उपयुज्य वा सम्यक् सम्यक्
आल्सो ऐ हेव् ट्रैड् टु यूस् शाकानि डिफ्रेण्ट् कैण्ड् आफ़् वेजिटेबल्स् टु ट्रै अण्ड् मेमरैज़् फ्यू
ओ ऐ नीड् दट् भगिनि
I shall bravely read it out. Bhagini, Shamyatam, if there are mistakes.
Bhagini, Chintamast.
Prathama Vibhakti, Aham Shakam Pachami.
Okay, Astu.
Dvitiya, Mala, Alukam, Bindikam Cha, Mulyah, Maam Vadati.
Mulyam. So, Atra, Alukasya, Kalu, Alukasya.
Okay.
Astu.
Alukasya, Bindi.
Bindehe. Bindehe cha mulyam vadati.
Mulyam vadati. Then tritiya, maya saha mama putri palandu kretum apanam agachati.
Samyak.
Chaturthi.
Bhagini, Kshamyatam, atra palandum athava kimapi. Palandu shakam athava palandum kretum.
Palandu, okay. Dvitiya, Bhagini?
Bhagini, palandum ityukte kim?
Vadatu Bhagini.
Onions.
Onions.
Oh, dhanyavada.
Or should it be... it has to be dvitiya, no, Bhagini?
Palandum kretum athava palandu shakam kretum, something. Kimavi.
Okay. Palandu kretum apanam agachati. Then chaturthi, sila makhyam granjanakam dadati. Carrot.
Anjanakam, Mahyam Dadati, Samyak.
Panchami, Mat Shila, Vrinthakam, Pakakriti Jnata. From Shila, I learned how to cook brinjal.
Punaha Vadatu?
Mat Shila
means from me Shila
sorry Bhagini, that's what I meant. From me Shila learned how to cook brinjal. Mat
punah patatu. Mat
Shila vrintakam pakakriti yata.
Pakakritim
yata. Okay. Everywhere I think I'm missing out the dvitiya, Bhagini. No, I think I'm using Pratima instead of the rest. Then Shashti, Mama Putri Maam Apekshaya Moolakam Samichinam Pachati. She cooks Moolangi, that is Mooli, better than me.
Mama Apekshaya.
Maam Apekshaya. Mama Putri Maam Apekshaya.
Bhagini, it should be Mama Apekshaya. Apekshaya Asti Chet Shashti Vibhakti.
Okay. So Mama Putri Mama Apekshaya, is it? That's useful, Bhagini. Thank you so much.
Bhagini, in this case, she can leave out Mama Putri, right?
Why?
When you are saying Mama Apekshaya, Putri, it kind of, you assume that it is your daughter?
We can.
Because you are, I'm just asking, can it be left out?
Yeah, it can be left out, but if it is added, it is more like, Mama Putri.
More, yeah.
You feel the affection, Mama Putri, like that.
Okay.
Okay. And then Saptami, Mai Grihe Sarve Janaha Pushpashakam Vartulam Cha Rojate. Cauliflower.
Atra Bhagini, Mama Grihe. Eva, Mama Grihe.
not in my house, is it?
Or, no, in me. Well, mayi vishwasam karotu. Have faith in me.
Oh, I see. I see. I see. Mayi, okay. Mama grihe, is it? No, but, oh, okay, okay. But mama is shashti and grihe is saptami. How do you reconcile those two?
Yeah, in my house.
In my house, okay, okay, okay. Okay, so you...
Mama Grihe, yeah. That is Mama Grihe. If you want to use Mayi Iti Vaktum Ichati Chet, Mayi Santo Vishwasam Karotu, have faith in me. Mayi Adharam Sha...
Bhagini, that is why I got stuck.
Very good, Bhagini. Very good, very good.
But is there a Saptami sentence with a vegetable? How would we form that, Bhagini?
Then you can say...
Can I say it, Bhagini? Shaka is good. Shaka, Mayi Vishwasam Karoto. I'm telling you, so believe me when I say the vegetables are good. Huh. Like that. But I'm not able to form the sentence. My Shakam Samyak Asti.
Shakam Samyak Asti. Mayi Vishwasam
Karotu. Yeah.
So Shakah Samyak Asti. Atava Shakah Samyak Asti. Iti Aham Vadami Chet. Mayi Vishwasam
Karotu.
So when you say Shak Asti, it has to be Pratama Vibhakti.
Okay.
अस्तु उत्तमं भगिनी धन्यवादः
धन्यवादः भगिनी
सर्वेषां कृते उपयोगाय आसीत् लाभाय
भगिनी भगिनी यूस् रोचते I just wanted to know if she used Chaturthi before she used Rochate.
Ma'am Bhagini, I didn't hear the Rochate, sorry. If you use Rochate, it has to be Chaturthi, Mahyam.
Like very good point, Bhagini. So it is then how would we say it?
Can you repeat Bhagini? The sentence? Because I don't think I
didn't hear it.
Yeah, I didn't hear it actually.
Okay, I'll read the original faulty sentence, Bhagini, so that you can correct it for me. I had written, Mayi Grihe Sarve Janaha Pushpashakam Vastulam Cha Rochate.
Okay, so Atra, because I was hung up on the Mayi Grihe, what immediately I said, oh, no, I jumped on it, okay, so sorry. I tuned out the rest of the sentence. So Atra, when you said Sarve Janaha Rochante, so you have to say Chaturthi there. How will you say Sarve Janaha, how will you convert that into Chaturthi? Janaha. Janaya?
Sarve Janaya.
Okay. No, so it is Janaya Janabhyam. रोचन्ते बिकास् शाकाः बहुवचनम् इ शुड् बि रोचन्ते
मम गृहे पुष्पेभ्यः जनेभ्यः पुष्पशाकं रोचन्ते
पुष्पशाखा रोचते पुष्पशाखा अथवा पुष्पशाखा इट् केनाट् बि शाखां वेन् वि यूस् रोचते इट् हेस् बि चतुर्थि विभक्ति द कर्म प्रथमा विभक्ति रूपं भवति
ओके 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 So, should it be Pushpashakaya or
पुष्पशाखा रोचते सर्वेभ्यः जनेभ्यः पुष्पशाखा रोचते शाखा रोचते शाखाः रोचन्ते सो दिस् फालोस् द कर्मपदं कर्मपदम् एकवचनम् अस्ति चेत् रोचते बहुवचनम् अस्ति चेत् रोचन्ते इट् बिकम्स् रोचन्ते ओन्लि इफ् इट् इस् शाखाः रोचन्ते
it is not dependent on the subject, is it, Bhagini? So, does not determine rochante, is it?
No.
I see.
They are pleased by the cauliflower.
Okay. They are pleased by the cauliflower.
My rochante.
मह्यं रोचते
लैक्ड् बै होम् कम्स् इन् चतुर्थी
लैक् बै होम् आम् सम्यक् लैक् बै होम् धन्यवादः भगिनि ऐ कम्प्लीट्लि मिस्ड् रोचते
भगिनि
आं भगिनि
अहं यत्तत् वाक्यानि वदामि वा
निश्चयेन भगिनि वदतु
ह्यः या बालिका अत्र आगतवती सा मम पुत्री
सम्यक् भगिनि
द्वितीयाम् ऐ डोण्ट् नो भगिनि वेदर् हव् डन् इट् रैट् मम सहोदरी यानि वस्तूनि पश्यति तानि सर्वाणि मम पुत्र्याः क्रीणाति or dadati which I can use krinati also na bagini
mama
for my daughter
mama putriyah krite dadati
putriyah krite
okay. Putriyah krite dadati athava mama putriyah krinati from the daughter
okay
athava mama putriyai dadati mama putriyai dadati
यया महिलया सह ह्यः सा आगतवती सा एव मम सहोदरी
सम्यक्
यस्मै बालकाय मम पुत्री तानि बहूनि चाकलेहानि क्रीतवती सः मम सहोदर्याः पुत्रः
ओ उत्तमं परन्तु अत्र चाकलेहाः इति पुल्लिङ्गपदं सो अतः चाकलेहान् तान् शाकलेहान्
तान् बहून् चाकलेहान्
बहून् बहून्
पञ्चमी यस्मात् परं मम पुत्री जनितवती इति अहं वदामि किल सः एव तम् Is that right? Saha, he is that. He is only that.
Saha eva, saha, eshaha.
Saha eva, eshaha. Okay. It is him. I mean...
It is he.
He. Okay. Saha eva, eshaha. Yasya udhyanasya phalam maduram, tasya gunam maduram nasti. Kinchitapi maduram nasti.
न अवगतं भगिनि यस्य उद्यानस्य फलं
हूस् गार्डन्स् फ्रूट् इस् स्वीट् हिस् केरेक्टर् इस् नाट् सो स्वीट् इस् नाट् स्वीट्
ओ तस्य गुणः अस्ति
तस्य गुणः मधुरं नास्ति
मधुरः फगुणः वि जनरलि डोण्ट् से मधुरः भगिनि सो यु केन् से
केन् यु से वचनं
बट् शी मीन्स् गुणः तस्य गुणः
सम्यक् नास्ति
सम्यक् नास्ति
उत्तमः नास्ति उत्तमः गुणः उत्तमः नास्ति
एण्ड् लास्ट् भगिनी सप्तमी यस्मिन् हृदये देवः वसति सः अन्ये न हिंसति
उत्तमं भगिनि अन्यं न हिंसति अन्यं न हिंसति सम्यक् भगिनि सो अत्र द्वितीया विभक्ति यम् अथवा याम् अथवा यत्
बहुवचनं
सो यान् याः यानि
यानि वस्तूनि
सम्यक् एव भगिनि यानि वस्तूनि अस्तु सम्यक्
धन्यवादः
भगिनि बहु सम्यक् आसीत् लाभाय आसीत् सर्वेषां कृते लाभाय आसीत् अन्य कोऽपि
भगिनि
वदतु
ऐ रोट् सप्तककार
उत्तमं वदतु
किं पुस्तकस्य नाम किम्
सम्यक्
पुस्तकस्य नाम महाभारत अस्ति
पुस्तकस्य नाम एव नाम
महाभारतम् अस्ति
सम्यक्
कुत्र भवतः विद्यालयं कुत्र अस्ति
सम्यक्
मम विद्यालयं तत्र सन्ति
मम विद्यालयः
तत्र सन्ति
सन्ति वा किम् अन्य किं पदम् सन्ति इति कुत्र आगच्छति प्रथम एकवचनं वा बहुवचनं वा
भूतकालं वा
वर्तमानकालं खलु अस्ति सन्ति इति सन्ति इति बहुवचनं वा एकवचनं वा
सन्ति एकवचनं ऐ डोंट नो भगिनि ऐ फर्गॉट
नो भगिनि एकवचनम् अस्ति बहुवचनं सन्ति खलु फलानि सन्ति परन्तु अत्र विद्यालयः इति अस्ति तत्र एकवचनं वा बहुवचन रूपं वा तत् विद्यालयः
एकवचनं विद्यालय इस् अ बिग् वन् नो
या बट् देर् इस् वन् विद्यालयः न
ओके सो मम विद्यालयः तत्र अस्ति
सम्यक्
कति वृक्षे कति पर्णानि सन्ति वृक्षे बहूनि पर्णानि अस्ति
सन्ति खलु बहूनि पर्णानि सन्ति
बहुवचन बहूनि अस्ति
बहूनि सन्ति
सन्ति भगिनी कदा मम गृहे आगच्छति
गृहम् आगच्छति
गृहम् आगच्छति अहं श्वः पञ्चवादने आगमिष्यति
अहम् इति वदामः चेत्
आगमिष्यामि सारि कथं चलचित्रं कथम् अस्ति चलचित्रं सम्यक् न सन्ति अस्ति असन्ति
अस्ति खलु कथम् अस्ति सम्यक् अस्ति सम्यक् नास्ति इति
सम्यक् न अस्ति किमर्थं मयूराः नाचयन्ति
नृत्यन्ति
ओके नृत्यन्ति वर्षकालतः मयूराः नाचयन्ति कुतः
भगिनि वर्षाकालः खलु वर्षाकालतः मयूराः नृत्यन्ति पुनः नृत्यन्ति एव नाचन्ति इति हिन्दीभाषा खलु भगिनि
नृत्यन्ति
अस्तु
कुतः भगिनी शाटिका कुतः आनीतवती
शाटिकां द्वितीया
ओके शाटिकां कुतः आनीतवती शाटिकाम् आपणात् आपणातः क्रीणाति राइट भगिनी
सो आर यू सेइंग अहं वा सा वा अथवा अन्य किमपि उदाहरणं भवती क्रीणाति वा अहं वा किं वाट् इस् दिस् वाट् इस् द सब्जेक्ट् देयर भगिनी
सब्जेक्ट् इस् अ शाटिका ऐ मीन् ऐ बाट् शाटिका फ्रोम् आपणात्
सो सो ऐ खलु पुनः वदतु अहं
ओ अहं शाटिकाम् आपणात् क्रीणामि
क्रीणामि सम्यक्
यत्र तत्र यत्र वसन्त ऋतु अस्ति तत्र कोकिला गुञ्जति राइट
कोकिला गुञ्जति अस्तु
यद्यपि तथापि यद्यपि अहं परिश्रम करोति
करोमि
तथापि अहं परीक्षात् उत्तीर्णं भवति
परीक्षायाम्
अस्तु
उत्तीर्णं न भवामि
अस्तु अस्तु
यद्यपि तथापि विरुद्ध अर्थकं भवतु तत्र यद्यपि अहं सम्यक् पठितवती तथापि अहं न उत्तीर्णं भवामि
अस्तु यथा तथा यथा भवती सुन्दरी अस्ति तथा भवत्याः शाटिका अपि सुन्दरी अस्ति
सम्यक् उत्तम
यावत् तावत् एषा यावत् कार्यं करोति तावत् अन्या न करोति
सम्यक्
भगिनी
बहु लाभाय भवति इति अहं चिन्तयामि अन्येषां कृते अपि
Bhagini, I will give other chance. I have rotated, but I am not going to waste. I mean, take your time.
Astu Bhagini, dhanyavadaha. Anya kopi, atava kapi?
Bhagini, aham padam.
Padata.
Yata abhyasa darshinyam sambhashanam asti, tata lagu sambhashanam.
Vadata.
शिवब्रह्मणयोः आधुनिककालसम्भाषणं भगवान् शिवः भारतं गत्वा प्रत्यागच्छति तदा सः ब्रह्मदेवं पश्यति तौ भाषितुम् आरम्भं कुरुतः ब्रह्मा वदति नमस्ते शङ्कर यात्रा कथम् आसीत् शिवः वदति यात्रा तु सम्यक् एव आसीत् मम दूरवाण्याः जी पी एस् उपयुज्य सरलतया स्थानानि अन्वेषणं कर्तुं शक्तवान् अपि च अहं मुखस्य कवचं धृत्वा एव गतवान् किं करोति देव या भवतः हस्ते अस्ति सा एव दूरवाणी अस्ति तदा ब्रह्मदेवः वदति एवं वा बहु सम्यक् दृश्यते भवतः हिमालयगमनात् परं माम् एतत् कथम् उपयोगं करणीयम् इति वदतु शिवः वदति तदा शिवः वदति निश्चयेन देव सर्वे यथा गतवर्षे आसन् तथा जनाः गृहे उपविशन्ति सर्वे बहु त्वरितं काले एव बहिः गच्छन्ति सर्वे बहु समयाः बहिः न गच्छन्ति इति कारणात् प्रदूषणं न्यूनमस्ति पोल्युषन् न्यूनमस्ति ब्रह्मदेवः वदति ओ सम्यक् शिवः अस्मिन् समये सर्वे तेषां व्याक्सिन् स्वीकुर्वन्ति अहं तु तत् स्वीकर्तुम् इष्टवान् एव परन्तु कोऽपि भक्तः मां वरं याचयति चेत् तदर्थं मम समीपे बलम् आवश्यकम् अतः अहं न स्वीकृतवान् तदा अस्थिरवाणी श्रूयते देवः अपि व्याक्सिन् स्वीकर्तुं सिद्धः न
आं भगिनि सो तदा तौ मिलित्वा वदन्ति सत्यं तत्तु अस्माकं कार्याणि बहवः सन्ति किञ्चित् समयानन्तरं देवाः सर्वे आगच्छन्ति तदा सः तेभ्यः अपि भारतस्य विषये प्रेषितवान् धन्यवादः
अत्र प्रेषयतु भगिनि
क्रियापदरूपाणि भगिनि एतत्
ओ एवं वा भवती ग्रूप् मध्ये प्रेषयतु कृपया
आं भगिनि
सावधानतया सर्वे पठन्तु तत्र अस्तु
धन्यवादः
अन्य कोऽपि अस्ति वा न वा अस्तु तर्हि अर्धघण्टात्मकम् अभवत् इदानीम् अभ्यासदर्शिनीं प्रति गच्छामः अभ्यासदर्शिन्यां यद्यपि तथापि वयं सम्भाषणं पठितवन्तः खलु यद्यपि तथापि
न भगिनि
न अस्तु
चत्वारि वाक्यानि एव पठितवन्तः
एवं वा अस्तु तर्हि प्रथमतः एव पठामः सो अत्र यदा तदा इति समयं सूचयति यदा वृष्टिः भवति तदा अहं गृहे भवामि यदि न यदा सो अत्र कारणं करणम् इति न कारणमिति नास्ति समयः समयं सूचयति यदि तर्हि कारणं करणम् इति सूचयति यदा तदा समयं सूचयति यावत् तावत् कथं कार्यं करोति इति सूचयति अपि च कियत् सूचयति यद्यपि तथापि विरुद्धार्थकं सूचयति यद्यपि समयः अस्ति तथापि अहं न पठामि साधारणतया यदि समयः अस्ति अहं पठामि यदा समयः अस्ति तदा अहं पठामि परन्तु यद्यपि तथापि विरुद्धार्थकं सूचयति अस्तु प्रथमतः एव पठामः गोपिका भगिनी आरम्भं करोति वा ये न पठन्ति म्यूट् मध्ये गच्छन्तु धन्यवादः
आं भगिनि श्यामः मित्र प्रचारकत्वं मास्तु इति गृहसदस्याः न उक्तवन्तः किम् कृष्णः यद्यपि ते तथा उक्तवन्तः तथापि अहं तत् न परिगणितवान्
एतत् पूर्वमेव वयं पठितवन्तः खलु ते उक्तवन्तः एव इति गृहसदस्याः प्रचारकत्वं मास्तु इति न उक्तवन्तः न ते उक्तवन्तः एव परन्तु अहं न परिगणितवान् इति यद्यपि ते तथा उक्तवन्तः तथापि अहं न परिगणामि परिगणयामि परिगणितवान् इति सः उक्तवान् अस्तु मालति भगिनी पठितुमिच्छति वा न वा अस्तु सागरी भगिनी
आं भगिनि श्यामः इदानीं कथमस्ति गृहस्य स्थितिः कृष्णः यद्यपि पूर्वं तेषाम् असन्तोषः आसीत् तदापि इदानीं सर्वे सन्तुष्टाः सन्ति
सम्यक् सो अत्र कथम् अस्ति गृहस्य स्थितिः इति अस्ति चेत् अर्थः कः स्थितिः इत्युक्ते ते सन्तोषम् अनुभवति वा न वा कथं सन्ति ते इति वदति यद्यपि पूर्वं तेषाम् असन्तोषः आसीत् तेषां विभक्तिका अत्र तेषां
षष्टि
षष्टि तस्य तयोः तेषां तेषाम् असन्तोषः अस्ति. अत्र अत्र वाक्यरचनं कथम् इति पश्यतु. तेषाम् असन्तोषः तेषाम् असन्तोषः परन्तु अग्रे सर्वे सन्तुष्टाः. अत्र अत्र सन्तुष्टाः इति विशेषविशेषभावः भवति. सर्वे सन्तुष्टाः सन्ति परन्तु असन्तोषः असन्तोषः एव. मम असन्तोषः अस्ति, तस्य असन्तोषः अस्ति, तेषाम् असन्तोषः अस्ति. असन्तोषः न परिवर्तनं भवति परन्तु सन्तुष्टः इति परिवर्तनं भवति. सः सन्तुष्टः अस्ति, सर्वे सन्तुष्टाः सन्ति इति. सन्ध्या भगिनि
भगिनि सन्तोषः अव्ययम् अस्ति वा?
न अव्ययं न अव्ययं न अत्र अव्ययम् इव अस्ति.
लैक् इट् बिहेव्स् लैक् एन् अव्ययम् इस् दट् वाट् युर् सेयिङ्ग्?
नो 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 इट् डज़न्ट्. सो अत्र लैक् उदाहरणम् अहं वदामि मम कूपी इति. मम कूपी, तस्य कूपी, तस्याः कूपी, लैक् दट्.
आं भगिनि धन्यवादः.
अस्तु उत्तमप्रश्नः भगिनि. अस्तु सन्ध्या भगिनि.
शारदा, यः प्रचारकः भवति तस्य गृहे एतत् सहजं. तदस्तु कृष्ण, पानीयं किं ददामि? कृष्णः, भवती यत् ददाति तत् यावत् ददाति तावत्.
अस्तु यः यः अत्र यः प्रचारकः भवति तस्य गृहे. सो यः सः यः प्रचारकः भवति सः विकेम् तस्य तस्य गृहे. भवत्याः वाक्ये एतत् अस्ति अस्ति खलु भगिनि सन्ध्या भगिनि तस्य गृहे सप्तमे मिलित्वा.
सिमिलर्लि मम गृहे
यः प्रचारकः भवति तस्य गृहे एतत् सहजम् इत्य साधारणतया भवति. विषयः नास्ति इति ध्वनिः आगच्छति. कृपया म्यूट् मध्ये गच्छन्तु. धन्यवादः.
सो भगिनि विशेष्य मेचिङ्ग् that rule does not apply, right? When we say tasya grihe.
No, no. Udaharanartham, when you're saying yaha, then we have to show the connection.
Right. So there is an order of rules. Even there, there is a chronology, right?
Yaha pracharakaha bhavati saha atava tasya grihe.
Okay. On the other hand, if the yaha had not been there, the sentence itself started with, you know, dash grihe, it would probably have been saptami for that also, no, Bhagini?
We can say, if you are not bringing in any other sambandha, we can say that.
In that house, in
Tasmin Grihe.
Tasmin Grihe. Right. Okay.
So if we can split it, we can say Saha Pracharakaha Bhavati. Tasmin Grihe Etat Sahajam. Yaha Pracharakaha Bhavati, Tasya Grihe Etat Sahajam. Tadasya.
भगिनि, केन् बि से प्रचारकस्य गृहे एतत् सहजं?
सम्यक् सम्यक् प्रचारकस्य गृहे एतत् सम्यक् सहजम्.
प्रचारकः बिकम्स् दि सब्जेक्ट्
आम् प्रचारकस्य गृहे
प्रचारकस्य गृहे
प्रचारकस्य गृहे सो अत्र प्रचारकः इति पदस्य सर्वनाम अस्ति तस्य तस्य गृहे एतत् सहजं तदस्तु कृष्ण सो अत्र श्यामः सर्वदा किमपि पृच्छति खलु सो अत्र शारदा सर्वदा कृष्णस्य पक्षमेव वदति तदस्तु कृष्ण पानीयं किं ददामि इति स्नेहेन वदति पानीयं किं ददामि कृष्णः वदति भवती यत् ददाति तदेव मम पानीयम् यावत् ददाति तावत् इति किञ्चित् ददातु तत् पर्याप्तम् अधिकं ददातु तदपि अहं पिबामि इति
So, Bhagini, paniyam is not necessarily water, but any liquid, is it?
Anything to drink, paniyam.
Okay. So, because that's why I was wondering, what water didn't make sense. It is what drink, right?
Amma. Astu, agre, Dasharatha, Bhagini.
Bhagini. खाद्यम् अपि भवति यावत् ददाति तावत् खादति सः
श्यामः एवमेव वदति अस्तु अग्रे
कृष्णः वदति यावत् शक्यते तावत् खादामि अविशिष्टं नयामि पानीयसेवनस्य अनन्तरं गन्तुम् उद्युक्तः कृष्णः
अस्तु अत्र खाद्यमपि भवति यावत् ददाति तावत् खादति सः इति श्यामः वदति अस्तु वा सो अत्र कृष्णः वदति यावत् शक्यते तावत् खादामि यावत् शक्नोमि तावत् अहं खादामि सो अत्र शक्यते श्रूयते एतत् सर्वं कर्मणि प्रयोगः परन्तु अत्र मिश्रणं कृत्वा लिखितमस्ति यावत् शक्नोमि तावत् खादामि अवशिष्टम् इत्युक्ते यत् न खादितुं शक्नोमि तत् अहं नयामि अवशिष्टम् इत्युक्ते खादितुं न शक्नोमि यत् अस्ति स्थालिकायां स्थालिकायां यत् अवशिष्टम् अस्ति तत् अहं नयामि मया सह नयामि सो अत्र अवशिष्टम् इति अस्ति अवशिष्टम् अस्तु पानीयसेवनस्य सेवनस्य
the literal meaning of avashishtam does it mean leftover or does it mean leftovers right
leftovers
okay
avashishtam udaharanartham aham vadami dasha janah santi pancha janah gacchanti avashishta janasya sankhya ka like that
okay
धन्यवादः
सो लैक् रिमेनिङ्ग्
अद्य किं खादति पाकं किम् अहं किमपि न पचामि अवशिष्टभोजनम् अस्ति तदेव खादामि अवगच्छन्ति वा अवशिष्टभोजनं किम् अस्ति तदेव अहं खादामि अवशिष्टम् न सम्यक् न जानामि अवशिष्टः अव्ययं नास्ति इति मन्ये अव्ययं नास्ति
अस्तु भगिनि धन्यवादः
अस्तु अग्रे पानीयसेवनं साधारणतया सेवनम् इति वदामः चेत् खादनम् अथवा पानम् इति पानीय लैक् आहारम् इति अर्थे पानीयसेवनस्य अनन्तरम् अनन्तरम् इति आगच्छति चेत् अत्रापि षष्टिविभक्तिरूपं भवति सेवनस्य अनन्तरं गन्तुम् उद्युक्तः कृष्णः उद्युक्तः इत्युक्ते सिद्धः सिद्धः आसीत् कृष्णः अस्तु अग्रे सविता भगिनि उद्युक्तः मीन्स् हि गाट् रेडि गन्तुम् उद्युक्तः कृष्णः उद्युक्तः अस्ति उद्युक्तः सपोसिङ्ग् इट् वास् शारदा उद्युक्ता अस्ति गन्तुम् उद्युक्ता शारदा
धन्यवादः
धन्यवादः अस्तु सविता भगिनि
आं भगिनि शारदा पुनः भवतः आगमनं कदा श्यामः यदा समयः भवति तदा एवं ननु कृष्णः कृष्ण एवं ननु कृष्ण
अस्तु शारदा पृच्छति पुनः भवतः आगमनं कदा स्मरन्ति वा आगमनम् इति भाववाचकपदम् आगच्छति आगमनं करोति पठति कथं भवति पठति
पठनं करोति
अनन्तरं करोति इति पदं त्यक्त्वा आगमनम् इति पदम् एव उपयुज्य वयं सप्तसु विभक्तिसु वाक्यं रचयितुं शक्नुमः आगमनम् अत्र आगमनम् इति प्रथमा विभक्ति वा अथवा द्वितीया विभक्ति वा भवतु भवतः आगमनम् भवतः आगमनं कदा अवगच्छन्ति वा अर्थः कः इति भवतः आगमनं कदा
भगिनि केन् यु टेल् वन् सेण्टेन्स् फार् द आगमनम् अगेन्
मम पुत्रस्य आगमनम् अद्य प्रातःकाले भवति
सो आगमनं वी केन् यूस् आन् अ सेण्टेन्स् टु
मम पुत्रस्य आगमनेन अहं सन्तोषम् अनुभवामि पुत्रस्य आगमनं कदा भवतः आगमनं कदा आगमनस्य अनन्तरम् अहं गच्छामि धन्यवादः सो अत्र भवतः आगमनं कदा इति शारदा वदतु भगिनि
Can I take it for just easy understanding that if I do not know the how to make the verb, I say it as agamanam, just make a dvitiya and say agamanam karoti. If I didn't know agachati.
Agachati. Samyak.
Okay, Bhagini.
So this agamanam karoti, pashanam karoti, pakam karoti, all these we generally use for verbs that are difficult to conjugate. For gacchati,
why do we say it is bhavavachaka padam?
Good question Atra. So it shows the expression, what is happening, the kriya.
Oh, okay. Action, some kind of
action, yeah. Actually, bhavam usually means some sort of
expression,
emotion, like that.
Okay.
But this is the term that is used, bhava-vachaka padam. So in the vibhakti valari, that is how they use it, vibhakti. Vibhakti valari, let me see. अस्तु अग्रे पश्य दर्शयामि. अस्तु अग्रे. सो अत्र यदा समयः भवति तदा एवं ननु कृष्ण इति श्यामः वदति. अनन्तरं कृष्णः किं किं वदति? अस्तु केतकी भगिनी.
कृष्णः तथा न, यदा भवन्तः स्मरन्ति तदा.
अग्रे
शारदा, वयं सर्वदा भवन्तं स्मरामः एव.
अत्र श्यामः उत्तरं ददाति, यदा समयः भवति तदा एवं ननु कृष्ण कृष्ण तथा न, समयः भवति चेत् अहम् आगामि इति तथा न, यदा भवन्तः स्मरन्ति स्मरन्ति तदा अहं तत्र आगच्छामि. शारदा भवति वयं सर्वदा भवन्तं स्मरामः. सो भवन्तं भवन्तं स्मरामः एव इत्युक्ते सर्वदा अत्र एव तिष्ठतु इति सः इति सा वदति. अस्तु
अम्बगिन्, सो वी केन् यूस् आल् द सेण्टेन्स् एस् अ यदा एण्ड् तदा, रैट्? इन्स्टेड् आफ् अदर् अदर्
न न न
we cannot use
it depends on what you want to say bhagini. All sentences cannot be used yada tada, only when you're showing the time, you know, like
yes,
when then yada tada.
Okay, dhanyavada.
Astu amba asti va patitum icchati va? धन्यवादः. अस्तु अग्रे अपि पठतु. धन्यवादः. धन्यवादः अम्ब. सो अत्र कृष्णः वदति तथा न, तर्हि यदा तीव्रं स्मरन्ति तदा. सो अत्र हि स्टार्ट्स् वित् तर्हि इत्युक्ते अहं म्यूट् करोमि, ध्वनिः आगच्छति. अस्तु शारदा वदति वयं सर्वदा भवन्तं स्मरामः एव. सो कृष्णः वदति तर्हि, देट् मीन्स् देन्, तर्हि यदा तीव्रं स्मरन्ति तदा. तीव्रम् इत्युक्ते केवलम् अहं कृष्णं स्मरामि इति न, अन्यविषयं त्यक्त्वा कृष्णम् एव स्मरामः तदा अहं तत्र आगच्छामि इति. सर्वम् एतत् मिथ्यवचनम् इति श्यामः वदति. सत्यम् इति पदस्य विपरीत पदमस्ति मिथ्या. सत्यं नपुंसकलिङ्गपदं, मिथ्या इति स्त्रीलिङ्गपदं, मिथ्या. सर्वम् एतत् मिथ्यावचनम्, वचनम् इति नपुंसकलिङ्ग, अतः सर्वम् एतत् मिथ्यावचनम्. प्रचारकस्य भवतः अत्र आगमनार्थं समयः कथं भवेत्? सो अत्र सरलवाक्यमस्ति, आगमनार्थं भवतः आगमनार्थं समयः कथं भवेत्? भवेत् इत्युक्ते निश्चयेन न भवति, न भवति इति वदामः चेत् निश्चयेन न भवति इति अर्थे अस्ति. परन्तु भवेत् इति वदामः चेत् प्रायः भवति, प्रायः न भवति इति अर्थे अस्ति भवेत् इति. अत्र भवतः अत्र आगमनार्थं समयः कथं भवेत्? इतोपि पदानि योजयामः. प्रचारकः प्रचारकस्य भवतः अत्र आगमनार्थं. सो भवतः इति पदस्य विशेषणमस्ति प्रचारकः. भवान् प्रचारकः भवतः आगमनार्थं प्रचारकस्य भवतः अत्र आगमनार्थं समयः कथं भवेत् इति दीर्घवाक्यं, परन्तु अवगच्छन्ति वा इति वदन्तु, नो चेत् पुनः वदामि. अवगच्छन्ति खलु?
अहं न अवगच्छामि.
अस्तु पुनः वदामि. लघुवाक्यमस्ति समयः कथं भवेत् इति. भवेत् इत्युक्ते कथं भवति इति न, भवति इत्युक्ते निश्चयेन भवति वा इति, परन्तु भवेत् इत्युक्ते प्रायः न भवति खलु इति अर्थे अस्ति. प्रायः, प्रायः स्यात् भवेत् इति वदामः चेत् प्रायः भवति, प्रायः अस्ति, स्यात् इति अस्ति चेत् प्रायः
भगिनि
निश्चयेन. श्वः वृष्टिः भवेत् सम्यक् न जानामि, निश्चयेन भवति वा न वा इति जानामि, परं प्रायः भवेत् इति. किं न किं कथं भवेत् इति वदति आगमनम्. आगमनं कथं भवेत्, समयः कथं भवेत्, समयः कथं भवेत्, कस्य समयः आगमनार्थं समयः कथं भवेत्, कस्य आगमनार्थं समयः, भवतः अत्र आगमनार्थं समयः कथं भवेत्. भवतः इति पदस्य विशेषणमस्ति प्रचारकः. भवान् प्रचारकः वाक्यद्वयेन वदामि चेत् भवान् प्रचारकः, अतः भवतः आगमनार्थं समयः कथं भवेत्. मिलित्वा प्रचारकस्य भवतः आगमनार्थं कथं समयः भवेत्
भगिनि. Bhagini, can we use that sentence, Mama Sakhi's Agamanartham Samayah Katham Bhavet?
Mama Sakhyah Agamanartham Samayah Katham Bhavet?
Katham Bhavet.
Kimartham itikte sa sarvada vyastha bhavati. Vyastha means busy. She's always busy.
Right.
Bhavataha here is Shashti Bhagini.
आम् षष्टि. भवतः नाम किं खलु, भवतः नाम किं
भगिनि? तत्र भवतः शब्दः कृष्ण सूचयति वा?
आम् कृष्णं सूचयति. अत्र आगमनार्थम् इति भाववाचकपदम्, अतः ततः पूर्वं षष्टिविभक्ति भवति.
भवतः अत्र आगमनार्थं समयः कथं भवेत् इति अहम् अवगच्छामि भगिनि, परन्तु प्रचारकस्य भवतः इत्युक्ते अहं न अवगच्छामि.
सो अत्र अहं वदामि भवान् सुन्दरः, भवतः इति षष्टिविभक्तिरूपं, सुन्दरस्य भवतः.
प्रचारकः श्यामः शारदा च सन्ति खलु?
प्रचारकः इति कृष्णः एव.
ओहोहो, ओके ओके ओके,
कृष्णः एव प्रचारकः.
अस्तु भगिनि.
So it would be like Pracharakasya Bhavataha Samayaha Katham Bhavet.
Samayaha Katham Bhavet.
I got confused with, because when I use Shashti, Bhavataha, there must be something in anything.
Bhavataha Agamanam.
Agamanam.
So Bhagini, I got confused because I was interpreting this as like Pracharakasya Bhavata means like the Krishna of the bhaktas, you know, since they propagate Krishna's I was trying to interpret it that way. So here you're saying Krishna himself is the Pracharaka.
Only then we have the Visheshana Vishesha Bhava Atta.
Dhanyavada.
Agre. Alam Charchaya. So Atra Alam Iti Padam Pariyaptam Iti Padasya Itopi Adhikam Vadati. Itopi Adhikam Ma Karotu Iti. उदाहरणार्थं काफी पानीयम् अहं पिबामि किञ्चित् इतोपि किञ्चित् आवश्यकं वा न न पर्याप्तम् इति परन्तु अलम् इति वदामि चेत् तत्र किञ्चित् भिन्न अर्थं भवति उदाहरणार्थं कोलाहलं कुर्वन्ति छात्राः कोलाहलं कुर्वन्ति बालकाः कोलाहलं कुर्वन्ति सो अहं तत्र वदामि अलं कोलाहलेन तृतीयाविभक्तिरूपं भवति यूजुअलि इट् इस् डन् फार् बिहेवियर् चर्चया कोलाहलेन शब्दं कुर्वन्ति अलं शब्दया शब्दः शब्देन अलं शब्देन इति सो अत्र पर्याप्तम् इति अर्थं परन्तु कार्यस्य एव अलम् इति वदामः किमपि नाय्स् लैक् दट् सो अत्र कार्यं कुर्वन्ति तस्य कार्यस्य अलं परन्तु अत्र तृतीयविभक्तिरूपं भवति अलं चर्चया अलं कोलाहलेन अलम् अन्य किम् विवादं कुर्वन्ति विदण्डा विवादं कुर्वन्ति अलं विवादेन सम्भाषणम् उच्चैः सम्भाषणं कुर्वन्ति अलं उच्चैः सम्भाषणेन इति ओके यदा खाद्यखादन इच्छा खाद्यखादन इच्छा खाद्यम् इत्युक्ते फुड् एनिथिङ्ग् दट् वि ईट् इस् फुड् दट् इस् एडिबल् ईटबल्स् खादनम् ईटिङ्ग् द ईटबल्स् इच्छा यदा खाद्यखादन इच्छा भवति तदा भवतीं स्मरिष्यामि कां स्मरिष्यति शारदां स्मरिष्यामि भगिनीं स्मरिष्यामि यदा भगिन्याः स्मरणं भवति स्मरणमति अपि भाववाचकपदं भगिन्याः स्मरणं भवति तदा अत्र आगमिष्यामि अस्तु मम विलम्बः जातः सो दिस् इस् द यूसेज् मम विलम्बः जातः आगच्छामि तावत् अवगच्छन्ति वा
भगिनी अलं चर्चया
अर्थः
वा
दट् इस् द रूल् भगिनि वेन् वि यूस् अलम् इट् गोस् इन् टु द तृतीया विभक्ति एनी बिहेवियर् वि डु नाट् लैक् सो अट् द टैम् वि वाण्ट् टु पुट् अ स्टाप् टु इट् पर्याप्तम् इत्युक्ते वि यूशुलि से फार् things chakra paryapta like that
bagini is it like enough and stop arguing stop making a noise like
correct.
That
correct
how would we say enough drinking
paryaptam yeah that we don't say alam
because drinking is also an action right
you're talking about the action of drinking alam panena but we generally don't say that bagini yeah
oh okay
paryapta yeah
so whenever alam comes we have to use it in tritiya right bagini
only tritiya
dhanyavaad
सो अत्र अहं दर्शयामि विभक्तिवल्लरीयां तत्र अस्ति कस्मिन् पुटे इति न जानामि परन्तु कोष्टकं सप्तमी द्वितीया अस्तु भावसूचकानां सो सन्तोषेन भावसूचकं भावसूचकपदं सः विना करोति हेतु प्रयाणसाधनम् अलं सो अत्र निषेधार्थकं निषेधार्थकं मीन्स् नाट् एक्सेप्टिङ्ग् संथिङ्ग् when we say aham angikaromi means I am accepting nishedanam karomi means I am rejecting alam nishedartaka so I am rejecting whatever you are doing alam shabdah yatra prayujyate tatra tritiya vibhakti bhavati paryapta artakasya so it shows the artham of paryaptam paryapta artakasya अलं शब्दस्य योगे तु चतुर्थी भवति वेन् वि से द पर्याप्तं वेन् वि से इनफ् वेन् वि यूस् अलम् इन् द इनफ् अर्थं देन् इट् गोस् टु चतुर्थी बट् इन् जनरल् इट् इस् तृतीया अलं मीन्स् लैक् ऐ रिजेक्ट् वाट् यु आर् डूयिङ्ग् लैक् यु नो जस्ट् स्टाप् इट् लैक् दट् अलम् अलं शब्द शोकेन कल्पनेन सो दीस् आर् आल् नेगेटिव् टेण्डेन्सीस् दट् वि आर् जल्पनेन अलं जल्पनेन अति यः कोऽपि कथां वदति बहु दीर्घकथा वदति कथां वदति अतिविस्तरेण वदति सो अत्र अतिविस्तरेण अलम् अलम् अतिविस्तरेण लैक् कम् टु द पायिण्ट् लैक् दट् अतिविस्तरेण शोकेन साहसम् अविधावनम् अविवेकिता ओके अस्तु
ओन्लि वित् गुणः we have to use it then
gunah and then something that we don't like that the other person is doing like that
asti
shokah asti anukena sahasam means what slowly right avivekata avivekita they are not choosing properly the right and wrong so you think properly dhavanam is not negative but in this context it could be negative they are going to fall down you're scared so alam dhavanena like that
so bagini we can make alam dhavatu
no alam dhavanena if you use alam tritiya vibhakti nischena tritiya vibhakti
अलं धावनेन
अलं धावनेन भवती प्रायः पतति भवती पतेत् फाल् भवती पतेत्
अलं धावनेन भवती पतेत् ओके
अस्तु
सो भगिनी वि केनाट् यूस् अलं कथया इन्स्टेड् वि केन् यूस् अलं कथनेन
कथनेन कथनं कथनेन
कथनेन not alam kataya
kata na I don't think so kata
so always use chaturthi when you use alam shabda use
alam shabda with tritiya not chaturthi
tritiya vibhakti okay
tritiya so atra I also want to show the bhava vachaka padam
पठनं श्रवणं गमनम् इत्यादीनि पदानि भाववाचकानि इति उच्यन्ते. इट् इस् सेड् दट् दे आर् भाववाचकपदं. भाववाचकपदानां योगे कर्मपदस्य कर्तृपदस्य षष्टिविभक्ति भवति. रामस्य आगमने, पुस्तकस्य अध्ययने, गीतस्य श्रवणेन. ओके ओके, लेट्स् कम् बेक् हियर्. ओके, विभज्यप्रयोगः विभज्यप्रयोगः अस्ति चेत् पदस्य नाम अस्ति भाववाचकपदम्.
Bhagini, if that's the reason in the previous sentence, it is mama vilambaha jataha?
No, that is different. No, that is different.
What is the reason for Shashti there? I am getting late.
My lateness. So this is the usage, Bhagini. I cannot explain why. उदाहरणार्थं मम सन्तोषः कुत्र अस्ति? सन्तोषः मै हेपिनेस् अस्ति. पूर्वं तेषाम् असन्तोषः आसीत्. देयर् अन्हेपिनेस् वास् देर्. मै अन्हेपिनेस्, सो मम सन्तोषः, मम असन्तोषः नास्ति. मम सन्तोषः अस्ति, मम बुभुक्षा अस्ति, मम पिपासा अस्ति. सो दिस् इस् द यूसेज् इन् संस्कृतम्.
बट् दोस् आर् आल् आल्सो भाववाचकपदम् भगिनि, इस् दट् वै देर् आल्?
इट् कुड् बि भगिनि, या इट् कुड् बि, या इट् कुड् बि अ गुड् वे टु एक्स्प्लेन्.
That's why I was trying to, you know, transpose that rule to that last sentence, Bhagini.
No,
because we cannot literally translate from English and say, I am getting late, aham vilambaha jataha. It has to be mama.
So if you want to translate, you can say, aham vilambena agachami. I am coming late. Aham vilambena agachami. Vilambena gachami. But I cannot say, I am getting late.
So if I have to say I am getting late, the only way to say it is mama vilambaha jataha, is it?
Vilambaha jataha. So bhava vachaka padam is the agamanam, like that. But that santoshah and all that, bhava suchaka padam.
Okay.
I saw this somewhere, let me show you. Bhava suchaka padam. कुत्र अस्ति? अस्तु, ऐ ओके, देट् इस् भावसूचकपदं भगिनि. सन्तोषः एण्ड् आल् दट् दे आर् भावसूचकपदम्. अस्तु,
धन्यवादः.
धन्यवादः. सो अस्तु, विशेषः अस्ति अग्रे. रम्या भगिनी,
विशेषः यदा तदा इत्येतत् युगलं कालं प्रदर्शयति. यदा इति यत्र प्रयुज्यते, तत्र तदा इति शब्दः अपि प्रयोक्तव्यः. उदाहरणं, यदा अहं भवतः गृहम् आगतवान् तदा भवान् गृहे न आसीत्.
अस्तु, यदा तदा इति कालं प्रदर्शयति. सो अत्र युगलम् इति वदामः. युगलम् इत्युक्ते पदद्वयम् अस्ति, यदा तदा. यदा इति उपयोगं कुर्मः चेत्, यदा इति यत्र प्रयुज्यते, यदा इति यत्र प्रयोगं कुर्मः, तत्र तदा इति शब्दम् अपि प्रयोगं करणीयं. प्रयोक्तव्यः इति अस्ति. वि काल् दिस् यु से तव्यत् इति. तव्यत् दट् मीन्स् यु मस्ट्, यु शुड् इति अर्थे अस्ति. तव्यत् इति वदामः चेत् तत्र कर्मणि प्रयोगः भवति. कर्मणि प्रयोगः अस्ति चेत् शब्दः इति प्रथमा विभक्ति भवति, प्रयोक्तव्यः. उदाहरणं यदा अहं भवतः गृहम् आगतवान् तदा भवान् गृहे न आसीत्. यदा अस्ति चेत् तदा अपि भवतु इति अर्थे अस्ति. अस्तु, परमेश्वरमहोदय. नास्ति वा? अस्तु, उषा, उषा भगिनी.
आं भगिनि. यावत् तावत्, यावत् तावत् इत्येतत् युगलम् अवधिं दैर्घ्यं कालं च सूचयति. यावत् इत्यस्य प्रयोगः कृतः चेत् तावत् इत्यपि प्रयोक्तव्यम् एव. उदाहरणं, भवान् यावत् इच्छति तावत् स्वीकरोतु. वट् इस् युगलम् अवधिं धैर्घ्यम्?
आं भगिनि, ऐ एम् गोयिङ्ग् टु एक्स्प्लेन् दट्. अस्तु, यावत् तावत् इत्येतत् युगलं, युगलम् इत्युक्ते पदद्वयम् अस्ति, पेर् इति वदामः खलु. यदा अस्ति चेत् तदा अपि भवति, एवमेव यावत् अस्ति चेत् तावत् अपि भवति. इत्येतत् युगलम् अवधिम्, अवधिम् इत्युक्ते सप्तवादनतः अष्टवादनपर्यन्तम्, अत्र अवधिम् इति वदामः, द स्पेन्, द पीरियड् इति. सो अत्र दैर्घ्यं, दैर्घ्यम् इत्युक्ते दीर्घम् इति अस्ति, दैर्घ्यं कालं च सूचयति. इत्युक्ते यावत् खादति तावत् अहं न खादामि, तत्र कालं न सूचयति, परन्तु कियत् इति सूचयति. भवती कियत् जलं पिबति? यावत् चषके अस्ति तावत् अहं पिबामि इति अहं वक्तुं शक्नुमः, परन्तु कालं सूचयति, कालमपि सूचयति. उदाहरणार्थं, यावत् कालं किं वदामि, यावत् वर्गः भवति तावत् अहम् अत्रैव तिष्ठामि. सो अत्र कालं सूचयति, अत्र यदा कालं सूचयति तस्य नाम अस्ति अवधि, दट् इस् दट् पीरियड्. दैर्घ्यं कालं च सूचयति. यावत् इत्यस्य प्रयोगः कृतः चेत् तावत् अपि प्रयोक्तव्यम्. उदाहरणं, भवान् यावत् इच्छति तावत् स्वीकरोतु.
वाट् इस् द मीनिङ्ग् आफ् दैर्घ्यम्?
सो अत्र दीर्घकालम् इति वदामः खलु, लाङ्ग् टैम् इति वदामः, दीर्घकालं. फ्रम् द विगत् दैर्घ्यम्.
भगिनी, इस् इट् इस् इट् डस् इट् कनोट् लेङ्थ् आफ् टैम्? सो
एक्साक्ट्लि,
ऐ विल् डू दिस् टिल् समथिङ्ग् हेपन्स्. सो देन् ऐ विल् हेव् इट्.
आम् 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 आम्.
धन्यवादः.
धन्यवादः भगिनी. धन्यवादः. सो अत्र अन्यवाक्यमपि वक्तुं शक्नुमः, यावत् बहिः वृष्टिः अस्ति अथवा यावत् वृष्टिः अस्ति तावत् अहं न गच्छामि, यावत् तावत्. सो अत्र क्वाण्टिटि अपि सूचयति, क्वाण्टिटि आफ् संथिङ्ग् एण्ड् द टैम् आल्सो, द टैम् फ्रेम् आल्सो. कालमपि सूचयति, दैर्घ्यं कालं च सूचयति, मीन्स् हौ लाङ्ग् अण्ड् हौ मच्. ओके, अस्तु, अग्रे. उमाकृष्णन् भगिनि.
आं भगिनि. यद्यपि, तद्यपि, यद्यपि, तथापि,
दोषः,
यद्यपि तथापि, यद्यपि तथापि इत्येतयोः अपि सहैव प्रयोगः करणीयः. उदाहरणं यद्यपि धनम् अस्ति तथापि सः दानं न करोति.
सम्यक्. सो अत्र किञ्चित् विरोध विनोदचिन्तनं विरुद्धचिन्तनं. यद्यपि धनम् अस्ति तथापि सः दानं न करोति, अथवा यद्यपि किञ्चिदेव धनम् अस्ति तथापि सः दानं करोति इति अर्थे अस्ति. अवगच्छन्ति वा? अस्तु ज्योति भगिनी.
आं भगिनि. अभ्यासः. धर्मेन्द्रः विस्मरणशीलः. सावित्री तस्य पत्नी. सा पत्युः अनुकूला. पत्युः विस्मरणशीलताम् अवगच्छन्ती सा सदा साहाय्यं करोति. पतिः कुत्र गच्छति इति सावित्री तस्मै किं ददाति इति स इति च अधः निर्दिष्टम् अस्ति. तदाधारेण यदा तदा इत्येतेन युक्तानि वाक्यानि लिखत.
अस्तु भगिनि, धन्यवादः. धर्मेन्द्रः विस्मरणशीलः. विस्मरणम् इत्युक्ते टु फर्गेट्. स्मरणं टु रिमेम्बर्. विस्मरणं टु फर्गेट्. शीलः दट् इस् वाट् हिस् बिहेवियर् इस् केरेक्टर् इति. विस्मरणशीलः. हि फर्गेट्स् अ लाट्. आब्सेण्ट् मैण्डेड् पर्सन्. विस्मरणशीलः. सावित्री तस्य पत्नी. धर्मेन्द्रस्य पत्नी. सा पत्युः. पतिः इति शब्दस्य षष्टिविभक्ति. पत्युः. पत्युः अनुकूला. अनुकूला इत्युक्ते तस्य साहाय्यं करोति. किं भगिनि? आमां, साहाय्यं करोति. पत्युः विस्मरणशीलतां, फर्गेट्फुल्नेस् इति वदामः, विस्मरणशीलताम् अवगच्छन्ती सा. सो अत्र वयं पूर्वं पठितवन्तः अस् धातु. वेन् वि वर् रीडिङ्ग् दि अस् धातु, अत्र बालकः पठन् अस्ति. पठन् अस्ति मीन्स् हि इस् रीडिङ्ग् इति. स्मरन्ति वा सर्वे? एकनिमिषम् अहं.
आं भगिनि. यस्टर्डे वि स्टडी
प्रेसेंट कंटीन्यूअस टेंस.
प्रेसेंट कंटीन्यूअस. सो अस्तु.
शत्रुप्रत्यय किल भगिनि?
शत्रुप्रत्यय. अस्तु अस्तु.
पठन् गच्छन् देट् इस् द रूप. ऐ मीन् शब्द.
अस्तु. धनेन कुत्र अस्ति इति. सो अत्र अनुजः पठन् अस्ति. पिता जपन् अस्ति. अहं पठन् अस्मि. सो अत्र पुल्लिङ्गे पठन् जपन् इति भवति, परन्तु अत्र स्त्रीलिङ्ग अस्ति. सा गच्छन्ती सा. अवगच्छन्ती सा सदा साहाय्यं करोति. अवगच्छन्ति मीन्स् अण्डर्स्टाण्ड्स्. अवगच्छन्ती सा सदा
साहाय्यं.
Exactly.
Because it's two things happening at the same time, right?
सम्यक् सम्यक् सो अत्र शत्रुप्रत्यय स्त्रीलिङ्गे एवम् अस्ति, रूपम् एवम् अस्ति, साहाय्यं करोति. पतिः कुत्र गच्छति इति, सावित्री तस्मै किं ददाति इति च अधः निर्दिष्टम् अस्ति. तदाधारेण यदा तदा इत्येतेन युक्तानि वाक्यानि लिखत. अस्तु, उदाहरणम् अन्य पुटे अस्ति वा? उदाहरणं, यदा धर्मेन्द्रः क्षीरकेन्द्रं गच्छति. क्षीरकेन्द्रम् इत्युक्ते यत्र क्षीरं क्षीरकेन्द्रं गच्छति, तदा सावित्री क्षीरपात्रं ददाति. क्षीरपात्रं ददाति, सो वि केन् आल्सो से तदा धर्मेन्द्रस्य कृते अथवा धर्मेन्द्राय क्षीरपात्रम् अथवा तस्मै तस्य कृते. इन् सो मेनि वेस् वि केन् से सावित्री क्षीरपात्रं ददाति इति. किञ्चिदेव समयः अस्ति, एकं कृत्वा पश्यामः. अस्तु, गोपिका भगिनी, आपण. न श्रूयते.
यदा धर्मेन्द्रः आपणं गच्छति तदा सा स्यूतं ददाति.
सा स्यूतं ददाति. अस्तु, अग्रे सागरि मालति भगिनी वक्तुम् इच्छति वा? अस्तु, सागरि भगिनी.
आं भगिनि, यदा धर्मेन्द्रः वायुविहारार्थं गच्छति तदा सावित्री दण्डं ददाति.
दण्डं ददाति. अस्तु, सन्ध्या भगिनि.
वायुविहारम् इस् लैक् वाकिङ्ग् आर् समथिङ्ग्.
आम् आम्.
यदा धर्मेन्द्रः स्नानार्थं गच्छति तदा
सावित्री प्रोञ्छः
प्रोञ्छः टवल् इस् इट् भगिनि?
आम् आम्.
प्रोञ्छः ददाति.
प्रोञ्चं ददाति. प्रोञ्चं. अस्तु, शारदा भगिनी.
आं भगिनि, यदा धर्मेन्द्रः दन्तदावनार्थं गच्छति तदा सावित्री दन्तकूर्चं ददाति.
सम्यक्. सविता भगिनी.
यदा धर्मेन्द्रः कार्यालयं गच्छति तदा सावित्री लेखनीं ददाति.
सम्यक्. केतकी भगिनि.
यदा धर्मेन्द्र ग्रन्थालयः गच्छति ग्रन्थालयं गच्छति तदा सावित्री उपनेत्रं ददाति.
सम्यक्. अम्बा वदति वा?
धर्मेन्द्र पठनार्थं गच्छति सावित्री स्यूतः ददाति.
काफी
स्यूतं ददाति.
अस्तु, स्यूतं ददाति, पुस्तकं ददाति, काफी पानीयं ददाति. अस्तु, धन्यवादः. धन्यवादः. अस्तु, रम्या भगिनी.
यदा धर्मेन्द्रः प्रवासार्थं गच्छति तदा सावित्री यानपेटिकां ददाति.
यानपेटिकां ददाति. धन्यवादः. परमेश्वर महोदय नास्ति इति चिन्तयामि. अस्तु, उषा भगिनि.
यदा धर्मेन्द्रः उद्यानकार्यार्थं गच्छति तदा सावित्री खनित्रं ददाति.
खनित्रं ददाति, खनित्रम् इत्युक्ते शवत्, खनित्रं ददाति. अस्तु, उमाकृष्णन् भगिनी.
यदा धर्मेन्द्र क्रीडार्थं गच्छति तदा सावित्री क्रीडासाधनं ददाति.
क्रीडासाधनं ददाति. अस्तु, ज्योति भगिनी एतत् पुनः करोतु. स्नानार्थम् आपणं किमपि.
यदा धर्मेन्द्र कार्यालयं गच्छति तदा सावित्री लेखनीं ददाति.
लेखनीं ददाति. अस्तु, सम्यक्. इदानीं स्थगयामः. अग्रे वयं किं करणीयम्? अस्माभिः किं करणीयम्? अत्र एतत् अस्ति. अस्तु, एकनवति अभ्यासं करणीयम्, एकनवतितम अभ्यासं करणीयम्. अस्तु, धन्यवादः. इदानीं शान्तिमन्त्रम् उक्त्वा समापयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे
सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः.
धन्यवादः भगिनि. धन्यवादः
भगिनी. धन्यवादः.